एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः राष्ट्रियसभाया ह्यस्तनोपवेशेन गत विक्रमवर्षीयम् जलपोत संचालन व्यवस्थापन विधेयकम् पारितीकृतम् वर्तते विधेयकम् आधृत्य वित्तीय विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः विधेयकेन आन्तर्जलमार्गे जलपोतस्य सञ्चालनाय मार्गः प्रशस्ति कृतोस्तीति अगदत् एवमेव उपवेशे विधायन व्यवस्थापन समितेः सभापतिः तुलसा कुमारी दाहालः उनाशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयम् सार्वजनिक परिषदः कार्यम् कर्तव्याधिकार कार्यविधि प्रथम संशोधन विधेयक सम्बद्धम् समितेः प्रतिवेदनम् प्रास्तौत् तत्पूर्वम् सांसदाः प्रतिवेशिनी भारतदेशे प्रतिदिनम् कोरोना विषाणोः संक्रमणम् वर्धमानम् अस्तित्यतः सीमा प्रवेश बिन्दुषु निःशुल्कम् स्वास्थ्य परीक्षणस्य व्यवस्थाम् विधातुम् अनुरुद्धवन्तः राष्ट्रियसभायाः अपरोपवेशः ज्येष्ठमासस्य त्रिंशे दिवसे शुक्रवासरे दिवा सपादैकवादने वस्ता प्रतिनिधिसभाया ह्यस्तनोपवेशेऽपि स्वज्येष्ठस्य अष्टाविंशे दिवसे ह्यस्तनोपवेशोऽपि स्वज्येष्ठस्य अष्टाविंशे दिवसे बुधवासरे उपवेक्षमाणत्वेन स्थगितो वर्तते ह्य दिवा पञ्चत्रिंशत् कलोत्तर त्रिवादनाय अर्धघण्टायाः पश्चात् उपवेशनत्वेन निर्धारितः उपवेश निर्धारित समय उपवेष्टुम् अशक्तः तदनु संसद सचिवालयेन सूचनाम् प्रकाश्य अपरोपवेश स्व बुधवासरे दिवा एकवादने उपवेक्षतिथि सूचितम् आसीत् पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे अनुसन्धानाय समितेः असंघटनम् यावत् प्रतिपक्षिदलैः संसदीय अवरोधः सृज्यमानो वर्तते अत्रान्तरे उपवेशस्य सञ्चालनाय दलेषु विमर्शनम् सभामुखस्य भूयो भूय प्रयासश्च सन्तौ अपि सहमतिः धृता नास्ति प्रधानमन्त्री केपी शर्मा ओली काष्ठमण्डप तराई मधेस द्रुतमार्ग योजनायाः प्रारम्भबिन्दोः विवाद समाधानस्य उपायानां च विषये ह्य ललितपुरस्य खोकनास्थानस्य बुङ्मतीस्थानस्य च स्थानीयवासिभिः मृष्टवान् अस्ति बालवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणा ओलिना सह तात्कालिक खोकना ग्राम विकास समितेः पूर्वाध्यक्षेण मदन कृष्ण डंगोलेन सहितानां जनानां समूहेन समस्यायाः समाधानस्य विकल्पस्य च विषयेषु परामृष्टम् वर्तते सम्बद्ध समित्या खोकना क्षेत्रे प्रारम्भबिन्दोः निर्धारणे परम्परागत सभ्यता संस्कृतिश्च विनष्टुम् शक्यते इत्यतः तस्मात् स्थलात् सार्ध पञ्च किलोमीटर मिते अधः स्थे डुकुछाप स्थाने प्रारम्भबिन्दुम् निर्धारयितुम् विकल्पः प्रस्तुतोऽस्ति रक्षा मन्त्रालयस्य सचिव रामेश्वर दंगालः प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य अधिकारिणः नेपाली सेनायाः प्रतिनिधयश्च विमर्शने सहभागिना आसन् तदवसरे प्रधानमन्त्री ओली स्थानीयानां जनानां क्षतिम् विधाय विकासस्य लक्ष्यम् सर्वकारस्य नास्ति इति चर्चयन् समस्यायाः समाधानस्य कृते निर्णयात् पूर्वम् आत्मना स्थलगतावलोकनम् करिष्यते इति असूचयत् स्वास्थ्य जनसंख्या मन्त्रालयेन हृदयास्थिप्रवृत्तिनां विभिन्नानां रोगाणाम् उपचारस्य क्रमे रुग्णेषु प्रत्यारोपणस्य उपचारे प्रयुज्यमानानि आवश्यक वस्तूनि चिकित्सालयस्य औषधालयेषु एव स्थापयितुं सर्वकारीय चिकित्सालयेभ्य प्रतिष्ठानेभ्यश्च परिपत्रम् विहितम् वर्तते सम्प्रति सर्वकारीय चिकित्सालयेषु तथाविध वस्तूनाम् अस्थापनेन मूल्यविवरणस्य सार्वजनिकरणेन च रोगिभिः मार्गेण तथाविधानि वस्तूनि क्रेतव्यानि सन्ति चिकित्सालयानाम् औषधालयेषु तथाविधानां वस्तूनाम् अस्थापनेन चिकित्सालयेषु एव नैज व्यवसायिभिः मार्गेण तथा विधानम वस्तुनाम विक्रयणम विधीयमानम अस्तीति वेदना मंत्रालय प्राप्यमाणा आसीत। मंत्रालयस्य प्रवक्ता डाक्टर प्रकाश बुढा थोकी मंत्रालयेन अतः परम चिकित्सालयेषु सर्वैः रोगिभिः दर्शनत्वेन मूल्य सार्वजनिकरणत्वेन च चिकित्सालयानाम् औषधालयेषु तानि वस्तूनि स्थापयितुं पत्राचार विहितोऽस्तीति असूचयत। वर्षायामस्य प्रारभणेन सहैव डेंगू रोगस्य संक्रमणं वर्धमानम् अस्ति। जून मासात् अगस्त मास पर्यन्तं डेंगू संक्रमणस्य संकटस्य वर्धनस्य अनुकूल समयोस्तीति मन्यते। संक्रामक रोग नियन्त्रण महाशाखायाः तथ्याङ्कानाम् अनुसारेण जनवरी मासस्य प्रथम दिवसात् जून मासस्य अष्टमं दिवसं यावत् सहस्रे पञ्चपञ्चाशद् उत्तर शतद्वये च जनेषु डेंगू संक्रमणं पुष्टीभूतमस्ति। संक्रामक रोग नियन्त्रण महाशाखाया प्रमुख डाक्टर गोकर्ण दाहाल डेंगू रोगस्य परिसमाप्तये मशकानां पूर्णतः समाप्तेः अभावेऽपि तेषां नियमनं कर्तुं शक्यते इति अगदत्। मुंगलिंग पोखरा मार्ग विस्तारस्य अन्तर्गतं पश्चिमखण्डे प्रतिशतं त्रिपञ्चाशता कार्यं सम्पन्नम् अस्ति। तनौ जनपदस्य जामुने स्थानात् पोखरा नगरस्य सेती नद्या सेतु पार्यन्तिके मार्गे अधुनावधि अर्धम कार्यम् सम्पन्नम् अस्ति इति मुंगलिंग पोखरा मार्ग योजनाया पश्चिमखण्डेन ज्ञापितम् वर्तते। योजनाया प्रमुख कृष्णबहादुर कुंवर चतुर्विंशति किलोमीटर मिते खण्डे पंक्तिद्वये दशमलवाष्टोत्तर द्वादश किलोमीटर मिते खण्डे एकत्र पंक्त्यां च कृष्ण वज्रीकरणस्य कार्यं सम्पन्नमस्तीति असूचयत। कृषि पशुपक्षी विकास मन्त्रालयेन अधुनावधि देशस्य कतिसूचित स्थानेषु एव चतुष्पादयुतेषु पशुषु लम्पिस्किन रोगस्य अफ्रिकन स्वाइन ज्वारस्य च दर्शनस्य विषये अध्ययनं कृत्वा तत्कालं तस्य नियन्त्रणाय प्रभावकारिणम् उपायं चालयितुम् अन्तर्गतस्य निकायाः निर्दिष्टाः वर्तन्ते। कृषि पशुपक्षी विकास मन्त्रिणः रामनाथ अधिकारिणः अध्यक्षतायां ह्यः उपविष्टेन उपवेशेन पशुसेवा विभागस्य अन्तर्गतानां वरिष्ठ पशु चिकित्सकानां नेतृत्वे पशुपक्षी रोगान्वेषण प्रयोगशालायां प्रदेश मन्त्रालय अन्तर्गतानां सम्बद्धाधिकृतानां स्थानीय स्तरस्य च सहभागितायां च समूहं संघटय्य तत्कालं दृष्टरोगेषु क्षेत्रेषु तस्य समूहस्य परिचालनं विधातुं निर्णीतं वर्तते इति समाचाराः।